दुर्गा चंद्रकला स्तुति ही। वेदो हरिश्वर स्तुत्यां विहर्त्रीं विंध्यबुधरे हर प्राणेश्वरी वंदे हंत्रीं विबुध विद्विषां अभ्यर्थनेन सरसीरुह संभवस्य त्यक्तोदिता भगवदक्षिपिधानलीला विश्वेश्वरी विपत् अपागमने पुरस्तात् माता ममास्तु मधुकैटभयोर् निहन्त्री प्राङ् निर्जरेषु निहितैः निजशक्तिलेशैः एकीभवद्भिः उदिताखिल लोकगुप्ती सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् प्रालेयशैलतनया तनुकान्तिसम्पते कोशोदिता कुवलयश्च विचारुदेहा नारायणी नमद भीप्सितकल्पवली सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि सूक्तानि पङ्कजभवा च सुरर्षिभिश्च दृष्टानि पावकमुखैश्च शिवा भजेताम् उत्पत्तिदैत्यहनन स्तवनात्मकानि संरक्षकाणि अखिलभूतहिताय यस्याः सूक्तानि अशेषनिगमान्तविदः पठन्ति तां विश्वमातरमजश्रम् अभीष्टवीमि ये वै प्रचित्त पुनरुत्थित शुम्भमुख्यैः दुर्भिक्षघोरसमयेन च कारितासु आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः तैरम्बिका समभिरक्षतु मां विपद्भ्यः सूक्तं यदीयम् अरविन्दभवादिदृष्टम् आवर्त्य देव्यनुपदं सुरतः समाधिः द्वावप्यवापतुः अभीष्टम् अनन्यलभ्यं तामादिदेवतरुणीं प्रणमामि देवी माहिष्मती तनुभवं च रुरुं च हन्तुम् आविष्कृतैः निजरसात् अवतारभेदैः अष्टादशाहत नवाहत कोटिसंख्यैः अम्बा सदा समभिरक्षतु मां विपद्भ्यः एतच्चरित्रमखिलं लिखितं हि यस्याः सम्पूजितं सदनयेव निवेशितं वा दुर्गं च तारयति दुस्तरमप्यशेषं श्रेयः प्रयच्छति च सर्वं मुमां भजेताम्।